కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణా బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజనీవతే ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమణ్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాతయుషు శివతమా శివం బభూవతే ధనుః శివాచరవ్యాయాతవతయానో రుద్రమృడయా యాతే రుద్ర శివా తనూరఘోరా పాపకాశిని తయానస్తను వాషంతమయా గిరిశ తాభిచాకశీ యామిషుం గిరిశంతహస్తే విభర్షస్తవే శివాం గిరిత్రతాం కురు మాహిగుం శ్రీ పురుషం జగత్ శివేన వచసా త్వా గిరిశాచ్చావదామసి యతా నః సర్వమిజ్జగత యక్ష్మగు సుమనా అసత్ అధ్యవోచదది వక్తా ప్రథమో దైవ్యోభిషక్ అహేగుశ్చ సర్వాంజంభయ సర్వాశ్చ యాదు ధాన్యః అసోయస్తామ్రు అరుణ ఉత బభ్రుస్సు మంగళః ఏచేమాగుం రుద్ర అభితో దిక్షుశ్రుత సహస్రశో వైశాగుం హేణ ఈమహే అసయ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నదహార్యః ఉతైనం విశ్వా భూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మేఢుషే అథో యే అస్య సత్వానోహం తేభ్యో కరన్ నమః భ్రమంచ ధన్వనస్త్వముభయోరాగ్నియోర్జా యాశ్చ దేహస్త ఇషవ పరాతా భగవో వప అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే నిశీర్య శల్యానాముఖా శివోన సుమనాభవ విజ్జంధను కపర్దినో విశల్యో బాణవాగుం ఉత అనేశన్న శేషవ ఆభురస్య నిషంగతిః యాతే హేతిర్మీనుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్వమయక్ష్మయా పరిభుజ నమస్తే అస్త్వాయుధాయానాతతాయ ధృష్ణవే ఉభాభ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథోయ ఇషుదిస్తవారే అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలానిరుద్రాయ నీలకంఠాయ మృత్యం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః नमो हिरण्यबाहवे सेनान्ये दिशा शपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जरायत्रिषीमते पतीनाम् पतये नमो नमो बभ्रुषाय विव्याधिनेन्द्रानाम् पतये नमो नमो हरिकेशायोपरीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्राय तथा विने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वायवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्नीनाम् पतये नमो नमः कृष्णवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणेस्तेनानाम् पतये नमो नमो निषङ्गिण इषु धृमत् तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रीकाविभ्यो जिगागुंसद्भ्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तञ्चरभ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिददानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यसृगम् हतेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्रिराय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः पूर्म्याय चावस्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्धते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः शोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय चावट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय चातप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेऽर्थ्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आराध्याय च लाद्याय च नमः शश्व्याय च प्रेम्याय च नमः सिकत्याय च प्रवाक्याय च नम इरिण्याय च प्रपत्याय ಸ್ವಾಧ್ಯಾಯ ಚ ನಮಃ ಕಿಗುಂ ಶಿಲಾಯ ಚ ಕ್ಷಯನಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಪುಲಸ್ತಯೇ ಚ ನಮೋ ಗೋಷ್ಠ್ಯಾಯ ಚ ಗೃಹ್ಯಾಯ ಚ ನಮಸ್ತಲ್ಪ್ಯಾಯ ಚ ಗೇಯ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ಗವರೇಷ್ಠಾಯ ಚ ನಮೋ ಹೃದಯಾಯ ಚ ನಿವೇಶ್ಯಾಯ ಚ ನಮಃ ಪಾಗುಂ ಸವ್ಯಾಯ ಚ ರಜಸ್ಯಾಯ ಚ ನಮಃ ಶುಷ್ಯಾಯ ಚ ಹರಿತ್ಯಾಯ ಚ ನಮೋ ಲೋಪ್ಯಾಯ ಚ ಲಪ್ಯಾಯ ಚ ನಮಃ ಊರ್ವ್ಯಾಯ ಚ ಸೂರ್ಮ್ಯಾಯ ಚ ನಮಃ ಪರ್ಣ್ಯಾಯ ಚ ಪರ್ಣಸದ್ಯಾಯ ಚ ನಮೋ ಪಗುರಮಾಣಾಯ ಚಾಭಿಘ್ನತೇ ಚ ನಮಃ ಆಖಿದತೇ ಚ ಪ್ರಖಿದತೇ ಚ ನಮೋ ವಕ್ಕಿರಿಕೇಭ್ಯೋ ದೇವಾನಾಂ ಹೃದಯೇಭ್ಯೋ ನಮೋ ವಿಚ್ಛೇನಕೇಭ್ಯೋ ನಮೋ ವಿಚಿನ್ವತ್ಕೇಭ್ಯೋ ನಮ ಆನಿರ್ಹತೇಭ್ಯೋ ನಮ ಆನೀವತ್ಕೇಭ್ಯಃ ಗ್ರಾಭೇ ಅಂಧಸಸ್ಪತೇ ದರಿದ್ರ ನೀಲಲೋಹಿತಾಂ ಏಷಾಂ ಪುರುಷಾಣಾಮೇಷಾಂ ಪಶೂನಾಂ ಮಾಭೇರ್ಮಾರೋಪೋ ಏಷಾಂ ಕಿಂಚನ ಮಮತ್ ಯಾದ್ವೇ ರುದ್ರ ಶಿವಾ ತನೋ ಶಿವ ವಿಶ್ವಾಹ ಭೇಷಜೇ ಶಿವಾ ರುದ್ರಸ್ಯ ಭೇಷಜೇ ತ್ರಯಾನೋ ಮೃಡ ಜೀವಸೇ ನಿಮಾಗುಂ ರುದ್ರಾಯ ತವಸೇ ಕಪರ್ದಿನೇ ಕ್ಷಯದ್ವೀರಾಯ ಪ್ರಭಯಾಮಹೇ ಮತಿಂ ಯಥಾ ನಶ್ಯಮಸದ್ವಿಪದೇ ಚತುಷ್ಪದೇ ವಿಶ್ವ ಪುಷ್ಟಂಗ್ರಾಮೇ ಅಸ್ಮಿನ್ನನಾತುರಂ ಮೃಡಾನೋ ರುದ್ರೋ ತನೋ ಮಯಸ್ಕೃತಿ ಕ್ಷಯದ್ವೀರಾಯ ನಮಸಾ ವಿಧೇಮತೇ ಯಚ್ಚಂ ಚಯೋಶ್ಚ ಮನುರಾಯ ಜೇ ಪಿತಾ ತದಶ್ಯಾಮ ತವ ರುದ್ರ ಪ್ರಣೀತೌ ಮಾನೋ ಮಹಾಂತಮುತಮಾನೋ ಅರ್ಭಕಂ ಮಾನ ಉಕ್ಷಂತಮುತಮಾನ ಉಕ್ಷಿತಂ ಮಾನೋ ವದೇ ಪಿತರಂ ಮೋತ ಮಾತರಂ ಪ್ರಿಯಮಾನಸ್ತರುವೋ ರುದ್ರರೀಶಃ ಮಾನಸ್ತೋಕೇ ತದಯೇ ಮಾನ ಆಯುಷಿ ಮಾನೋ ಗೋಷು ಮಾನೋ ಅಶ್ವೇಷು ರೀರಿಷಃ ವೀರಾನ್ ಮಾನೋ ರುದ್ರ ಭಾಮಿತೋ ಮತಿರ್ ಹರಿಷ್ಮಂತೋ ನಮಸಾ ವಿಧೇಮತೇ ಆರಾತ್ರೇ ಗೋಘ್ನ ಉತ ಪೂರುಷಗ್ನೇ ಕ್ಷಯದ್ವೀರಾಯ ತುಂ ನಮಸ್ಮೇತೇ ಅಸ್ತು ರಕ್ಷಾಚನೋ ಅಲಿ ಚ ದೇವ ಬ್ರೂಹ್ಯದಾಚನ ಶರ್ಮ ಯಚ್ಚ ವಿವರಹಾ ಸ್ತುಹಿ ಶ್ರುತಂ ಗರ್ತ ಸದೈವಾನಂ ಮೃಗನ್ನ ಭೀಮಮುಪಹತ್ನುಮುಗ್ರಂ ಮೃಡಾಜರಿತ್ರೇ ರುದ್ರಸ್ತವಾನೋ ಅನ್ಯಂತೇ ಅಸ್ಮನ್ನಿವ ಪಂತು ಸೇನಾ ಪರಿಣೋ ರುದ್ರಸ್ಯ ಹೇತಿರ್ಮೃಡತ್ತು ಪರಿತ್ರೇಷಸ್ಯ ದುರ್ಮದಿರಗಾಯೋ ಅವಸ್ತಿ ರಾಮಗವದ್ಯಸ್ತನುಷ್ವಮೀಢಸ್ತು ಕಾಯತನಯಾಯ ಮೃಡಯ ಮೀಢುಷ್ಟಮ ಶಿವತಮ ಶಿವೋ ನ ಸುಮನಾ ಭವಾನ್ ಪರಮೇ ವೃಕ್ಷ ಆಯುಧನ್ ನಿಧಾಯ ಕೃತ್ತಿಂ ವಸಾನ ಆಚರ ಪಿನಾಕಂ ಬಿಭ್ರದಾಗಹಿ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವಃ ಯಾಸ್ತೆ ಸಹಸ್ರಗುಂ ಹೇತಯೋನ್ಯಮಸ್ವನ್ನಿವ ಪಂತು ತಾಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಧಾ ಬಾಹುವೋಸ್ವ ಹೇತಯಃ ತಾಶಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೀನಾ ಮುಖಾಕೃತಿ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೆ ವರನ್ವಾನಿ ತನ್ವಸೇ
नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश
प्रतीचीर्दशोदीचीर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो मे स्थितम् वोजम् मे दधामि
त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम्
उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु ह्यस्विषुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगु शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वायश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महाधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वश्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्य मे ज्ञात्रम् च मे सोऽस्य मे प्रदोश्च मे शीलम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे ऋभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेदम् च मे शुच्य मे व्रीहयश्च मे जवाश्च मे माशाश्च मे तिलाश्च मे मुद्राश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च महापश्च मे विरुधश्च मौषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्धश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे ऊषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे धृपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुद्ग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीभतश्च मे हार्योजनश्च मे इद्मस्य मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे बोधवृच्च म आधवनीयश्च म आग्नेयधं च मे हविर्धारं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे जौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साव च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाक्ष मे द्वित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाक्ष मे तुर्यौहे च मे पष्ठवाक्ष मे पष्ठौ हि च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताश्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे षाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे षाचत्वारिगुंशच्च मे वाजश्च प्रसवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुब्धामदानि शगुंसिषत्विश्वे देवासोक्तवाच पृथिवीमा धर्मा वाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु। ॐ शान्ति शान्ति शान्तिः। ॐ तदक्षयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं षण्णो अस्तु द्विपदे षं चतुष्पदे। ॐ शान्ति शान्ति शान्तिः। सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतै यच्च भव्यम् कुतामृतत्वस्येषा नः यदन्येनातिरोहति एतावानस्य महिमा अथो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोऽध्वौ दैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्मात् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिक्षत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्म शरद्भवे सप्तास्यासन् परितयः त्रिसप्त समिदकृता देवा यद्यज्ञम् तन्वानाः अभद्रम् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षण्य पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्मात्यज्ञात् सर्वभूतः संहृतम् कृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वभूतः ऋषः सामालिजग्निरे छन्दागुंसिजग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावो हजग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कलिता व्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्र अजायत चन्द्रमामनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् శ్రీష్ణోధ్యోసమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకా గుమ్మకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్యధీరః నామాని కృత్వాభివదన్యదాస్తే ధాతాపురః సాధ్య ముదా జహార శక్ర ప్రవిద్వాన్ ప్రదిశశ్చ తస్రః తమేవం విద్వానమృత ఇహ భవతి నాణ్య పంథా అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ దేహనాకం మహిమానః సచంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అద్య సంభూత పృథివ్యేరసాచ విశ్వకర్మణః సమవర్తతాధి తస్య త్వష్టా విదద్రూపమేతి తత్పురుషస్య విశ్వమాచానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి నాన్యః పంథా విద్యతే జనాయ ప్రజాపతిశ్చరతి గర్భే అంధః అజాయమానో బహుధా విజాయతే తస్య దీనా పరిజానంతి యోనిం మరీచీనా పదమిచ్ఛంతి వేదసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే ఋషం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అశణ్వశే ప్రీశ్చ తే లక్ష్మీశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాంతం ఇష్టం మలిషానా అమం మలిషానా సర్వం మలిషానా సచ్చయ్యోరావృణీమహే గాతుయ్యజ్ఞాయ గాతుయ్యజ్ఞపతయే దైవే స్వస్తిరస్తునః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షన్ చతుష్పదే ఓం శాంతి 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 ఓం అత్రినాద్వారిమేహన్మే కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమీణాగుం రాజా అప్యేషాగస్థపతిర్హతః అథో మాతాథో పితా అథో స్థూరా అథో క్షుద్రాః అథో కృష్ణా అథో శ్వేతాః అథో ఆశాతికా హతాః శ్వేతాభిః సహ సర్వే హతాః ఆహరావద్యా శృతస్య హవిషో యథా తత్ సత్యం యదముయ్యమస్య జంభయోః ఆదధామి తథా హి తత్ ఖన్ ఫన్ రసి ఓ Shanti, Shanti, Shanti. Om Sam Savidyupase Vrishannagne Vishwanyarnyaha Ilaspade Samidhyase Sanovasunyabhara Sangachadvam Samvadadvam Sambhomalan Srijanatam Deva Bhagan Yathapurve Sanjarana Upasate Samano Mantras Samitis Samani Samanam Manasahachittame Sam Samanam mantram avimantra eva samanena vohavisha juhomi samaniva akutis samana hridayani vaha samanamastu bhomano yatha vassu sahasati om Prātar Mitra Varuna Prātar Ashvina Prātar Bhagam Pushanam Brahmanaspatim Prātar Soma Muta Rudra Gumbhuvema Prātar Chitam Bhagam Ugra Gumbhuvema Vayam Putra Madhiteryo Vidharta Adraschidyam Manyamanasturaschidrajachidyam Bhagam Bhakshitya Bhagapranetar Bhagasatyaradho Bhagemam Diyamudavadadannaha Bhagapranojanayagobhirashvai Bhagapranribhirruvantasyama Ute dhanim bhagavantasya moda prapitva utamadje anha Utodita maghavan suryasya vayam devanagum sumatau syama Bhaga eva bhagavagum astu devastena vayam bhagavantasyama Tamtva bhagas sarva ijjo havi misano bhagapura eta bhaveha samadvara yoshaso namantada nikrave vasuchaye padaya arvajinam vasuvidam bhaganno radhamivashva vajina avahantu Ashvavatir Kromatir Nahushaso Viravatir Sadamuchyandu Bhadraha Hrutam Duhanar Vishrata Pratina Yoyam Pata Swasti Vissadanaha Yomagne Bhaginagum Santamatha Bhagam Chikirushati Abhagam agne tam kuru mam agne bhaginam kuru Om Shanti 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 Om Asatye naraja savattamano niveshayan amritam martyansa Hiranyayena Savitarathena Devo Yati Bhuvana Vipashyan Agnim Dutam Krunimahe Hotaram Vishvavedasam Asya Yajnasya Sukratum Yejamise Pashupati Pashunam Chatushpada Mutachadvipada Nishkritoyam yajniyam bhagametu rayaspoṣa yajamānasya santu Om adhidevata pratyadhidevata sahitāya adityāya namaha ॐ आप्यायस्व समेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजाम् अग्निम् च विश्वशम्भुभवापश्च विश्वभेषजेः दौरीलिमायसलिलाहितक्षत्ते कपदि द्विपदि सा चतुष्पदे अष्टापदे नवपदे बभूवुषि सहस्राक्षरपरमे व्योमन् ॐ अभिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धादिवः ककुत्पतिः पृथिव्या अयम् अवागुम्रेतागुंसि जिन्दते शोणापृथिविभवानुक्षरा निवेशने यच्छानः शर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसे दामश्वम् पोषयित्नवासदो मृडातीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्बुद्ध्यस्वाग्ने प्रतिजागृत्येन मिष्टा पूर्ते सगुं सृजेथामयम् च पुनः कृण्वग्स्वापितरम् युवानमन्वातागुंसि त्वयि तन्तुमेतम् इदम् विष्णुर्विचक्रमेत्रेधानि दधे पदम् समूढमस्य पागुम् सुरे विष्णो रराटमसि विष्णो पृष्ठमसि विष्णो श्लत्रे स्थो विष्णो शूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीद यच्चमसत्त प्रजातदधस्मासु द्रविणम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथा शार्याते अपि भस्सुतस्य तव प्रणीते तव शूरशर्मन्नाभिवासन्ति कवयः सुयज्ञाः ब्रह्मयज्ञानम् प्रथमम् पुरस्ताद्विसीमतः सुरुचोदेन आवह स्वबुद्धिया उपमा अस्य विष्टा सतश्च यो हिमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवशुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो दैव्याहिमानुषा जलो गुष्यन्तर्विश्वानि विद्मनाचिगाते इन्द्राणी मासु नारिषु सुपत्नी महमश्रवम् न ह्यस्या अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतस्परिहवामहेश्वरेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिस्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्स्यामपतयोरयीणाम् इमम् यमप्रस्तरमाहि सीताङ्गिरोभिः पितृभिः संविधानः आत्वा मन्त्रा कविशस्त्वावहन्त्वेनाराजन् अविशामादयस्वा ओम् अधिदेवता प्रत्यधिदेवता सहिताय शनेश्चराय नमः ॐ कयानश्चित्र आभुवधूति सदा वृधः सखा कयाशचिष्ठया वृता आयङ्गो पृष्टिरक्रमेदशनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवे निररुतिरा भवन्धदावग्रीवास्वविचत्यम् इदम् ते तद्विश्याम्यायुषो न मध्या तथा जीव पितुमद्धि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे समुषड्भिरजा यथा ब्रह्मा देवानाम् परवे कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो रुद्राणागुस्वधितिर्वना नागुम् सोमः पवित्रमत्येतिरेभन्य सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिगृणते युवस्वा ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्तिः ॐ अहम् रुद्रेभिर्वसोभिश्चराम्यहमादित्यैरुतविश्वदेवैः अहम् मित्रावरुणो भाभिभर्म्यहमिन्द्राग्नि अहमश्विनो भा अहम् सोमावाहनसम् विभर्म्यहम् त्वष्टायमुत पूषणम् भगम् अहम् दाधामिद्रवीणम् भविष्माते सुप्राव्ये यजामानाय सुन्वते अहम् राश्री सङ्गमानि वसूनाम् चिकितुषी प्रथमा यज्ञियानाम् तामा देवाव्यादधु पुरुत्रा भूरिस्थात्राम् भूर्याम् वेषयन्ति मयासो अन्नामत्तियो विपश्याति य प्राणीति ये शृणोत्युक्तम् अमन्तवो मान्त उपक्षियन्ति श्रुति श्रोतश्रद्धिवन्ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुतमानुषेभिः यम् कामयेतम् तामुग्रम् क्रोणोमि तम् ब्रह्माणम् तमृषिम् तम् सुमेधाम् अहम् रुद्राय धनुरातानोमि ब्रह्मद्विशेषरा देहन्तवाओ अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवे आविलेशा अहम् सोमे पितरामस्य मूर्धम् मम योनिरप्स्वान्तः सामुद्रे ततो वितिष्ठे भुवनानु विश्वो तामोन्द्यामर्ष्मणोपस्पृशाय अहमेव वाता इव प्रवाम्यारभामाण भुवनानि विश्वा परो दिवापरयेना पृथिव्यैतावादि महिना सम्मा भूवा ओ स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति